Takže Siddhanta Kaumudyam Tatvarsya Samasa Prakarane Panchamah Pathah Yena Akshara Samam Nayam Adhigamya Maheshwara Kutpam Vyakaranam Proktam Tasmai Paninaya Namaha Vakyakaram Varavishim Bhashyakaram Patanjalim Paninim Sutrakaram Chattana Tosmim Mitrayam Mitrayam Namastutya Taduktish Paribhavyaja Vyakarana Siddhanta Kaumudyam Virachyate सत्पुरुषसमासप्रकरणे द्वितीयादि सप्तम्यन्ताः समासाः अधीताः वस्तुतः प्रथमा तत्पुरुषः इति नास्ति द्वितीयादि तत्पुरुषाणां नाम भवति पूर्वपदस्य विभक्तिम् आश्रित्य सो द विभक्ति डिपेंडिंग ऑन द विभक्ति ऑफ द पूर्वपद वी हैव नेम्ड द समास द्वितीय तत्पुरुष तृतीय तत्पुरुष एक्सेट्रा इन ऑल दीज केसेस एज़ यू हैव सीन The Purvapada will be in that particular Vibhakti, whereas the Uttarapada is normally in Prathama Vibhakti. So, there are samasas starting from Vitiya Tatpurusha to Saptami Tatpurusha. When you come to Prathama Vibhakti, if the Purvapada is in Prathama Vibhakti, and the Uttarapada is also in Prathama Vibhakti, then it is Tatpurusha, but that kind of Tatpurusha we call it as Karmadharaya. Wherever there is Samanadhikaranya, Yatra Ubhayohu Parayohu Vibhaktihi Ekaiva Bhavati, so the Samanadhikaranya must be Satpurusha Samanadhikarana Karmadharayaha Itrinena, that's the Karmadharaya Samaya Bhavati. Therefore, actually the Prathama Tatpurusha which we intend is nothing but Karmadharaya. That is, the Purvapada is in Prathama and the Uttarapada is also in Prathama Vibhakti. What then is Prathama Tatpurusha? There is something which we refer to as Prathama Tatpurusha. It is actually a variant of Shashti Tatpurusha. What happens in Shashti Tatpurusha is Shashti, Shashtyanta word is the Purvapada and Prathamanta word is the Uttarapada. And that happens because of the Purvanipata. Shashti iti sutrena yatra samasaha bhavati. तदा प्रथमानिर्दिष्टं समासोपसर्जनम् इत्यनेन षष्ठ्यन्तस्य उपसर्जनसंज्ञा भवति तस्य च पूर्वनिपातः भवति किन्तु कानिचन सूत्राणि सन्ति यत्र षष्ठ्यन्तस्य पूर्वनिपातः नास्ति देयर आर सम केसेस वेयर द षष्ठ्यन्त कम लास्ट बिकॉज ऑफ द वे द सूत्र इज फ्रेस्ड देयर आर अदर वर्ड्स विच आर टोल्ड इन प्रथमा विभक्ति देयरफॉर व्हेन दे कंबाइन विद षष्ठ्यन्त यू गेट Samasas, where the Shashtyanta word happens to be the Uttarapadam. Purvapadam Prathamantam Bhavati, Uttarapadam Shashtyantam Bhavati. Tadrishas Samasaha Eva Prathamatat Purushaha Iti Nirdishyate. That is what is generally referred to as Prathamatat Purusha. Where the Purvapada is in Prathama, but the Uttarapada is not Prathama, it is Shashti. That is commonly referred to as Prathamatat Purusha. But actually, In grammar, we refer to it as Ekadeshi Samasa. Okay. Ekadeshi Samasa is Sutrani Dhani Madhiyanta. Purva Paradharottaram Ekadeshi Neikadhikarane. It is Sutram. Purva Apara Adhara Uttaram Ekadeshina Ekadhikarane. It is Padachedaha. Trini Padansanti. Ekadeshaha. It is Padam. Avayave Athava Bhage Vartate. Ekadesha means a part. Or an organ. Atevatra, ekadeshi, ekadeshaha, asyasti iti ekadeshi. That which has parts or that which has organs is an organism or avayavi. Ekadesha is the organ and ekadeshi is the organism or ekadesha is the avayava and ekadeshi is the avayavi. Therefore, he says, avayavina saha purvadaya samasyante. Purva aparadhara uttara ityete. शब्दाः अवयवी वाचकेन सह समस्यन्ते एकत्व संख्या विशिष्टश्चेद् अवयवी तत् अनन्तरं पश्यामः तद्भागम् षष्ठी समासः पादः यथा मया उक्तम् अत्र षष्ठी समासः प्राप्नोति पूर्वं कायस्य इत्यस्ति कायस्य पूर्वं द फर्स्ट पार्ट ऑफ द बॉडी कायः नाम शरीरम् तस्य पूर्वः भागः इत्यर्थः कायस्य पूर्वम् इत्यत्र षष्ठी समासे प्राप्ते अनेन अपवादत्वेन इदं सूत्रं पठ्यते पूर्वापराधरोत्तराणि अवयवीव नाम सह समस्यन्ते सज्जिष्यन्ति पूर्वापराधरोत्तरम् इति प्रथमा विभक्तौ अस्ति, एकदेशी नाम अवयवी अवयविना इति तृतीया विभक्तौ अस्ति. अतः प्रथमानिर्दिष्टं समासोपसर्जनम् इत्यनेन पूर्वादीनां पूर्वनिपातः भवति, उपसर्जनसंज्ञा भवति, पूर्वनिपातश्च भवति. अत एव पूर्वं कायस्य, कायस्य पूर्वम् इति विग्रहः. तत्र पूर्वशब्दस्य पूर्वनिपाते पूर्वकायः इति समस्तं पदम्. पूर्वशब्दः अस्ति, कायशब्दः अवयवी. सो पूर्व इस् द फस्ट् पार्ट् एण्ड् काय इस् द कम्प्लीट् अवयवी. पूर्व इस् एन् अवयव एण्ड् काय इस् द अवयवी. सो दिस् इस् द समास हेपन्स् एण्ड् दिस् इस् काल्ड् एकदेशी समास. एवम् अपरकायः, अपरं कायस्य, द लेटर् पार्ट् आफ् द बाडि इत्यर्थे अपरकायः. एकदेशिना किं पूर्वं नाभेः कायस्य. So always the samasa is with an ekadeshi, that is with the avayavi. There is an example here, purvam nabhehe kayasya. Kayasya nabhehe purvam refers to that part which is before the nabhi, the navel part of the body. Atra purvam iti prathama, nabhehe iti panchami vibhaktihi, kayasya iti shashti. Here, पूर्वं नाभेः इत्यत्र समासः भवति वा इति प्रश्नः. अत्र पूर्वशब्दस्य नाभिः अवधिः. नाभि इस् नाट् द अवयवी. यु आर् नाट् रेफरिङ्ग् टु द फस्ट् पार्ट् आफ् द नाभि. यु आर् रेफरिङ्ग् टु द पार्ट् आफ् द बाडी विच् लैस् इन् फ्रण्ट् आफ् द नाभि. सो हियर् पूर्वम् इत्यस्य नाभिशब्देन सह समासः न भवति. किमर्थं? नाभिशब्दः एकदेशी न. नाभि इस् नाट् द अवयवी हियर्. काय इस् द अवयवि, but we are the anvaya of purva is with nabhi. Purva shabdasya nabhihi avadhihi, that is you are measuring purva before what iti prashne, before the navel iti. Nabhihi avadhihi natu avayavi. Ataha nabhi shabdena saha purva shabdasya samasaha na bhavati. Ekadeshina avayavina sahiva ayam samasaha. There is also one more word in the sutra, ekadhikarane. सूत्रार्थे किं लिखितम्? एकत्वसङ्ख्या विशिष्टश्चेद् अवयवी इति दत्तम्. स्लैड् 3. किमर्थं तथा इत्युक्ते पूर्वश्छात्राणाम् इत्यस्ति. छात्राणां पूर्वः इति कः अर्थः? छात्रसमुदायस्य पूर्वभागः. देयर् इस् अ ग्रूप् आफ् स्टूडेण्ट्स्, द फस्ट् हाफ् आफ् इट् इत्यर्थः. अत्र पूर्वशब्दः एकदेशः, छात्रसमुदायः अथवा छात्राणाम् इति अवयवी. सो द छात्र इट्सेल्फ् इस् द ग्रूप् आफ् दट् वि आर् रेफरिङ्ग् टु वन् पार्ट्. सो अवयवी एकदेशी अस्ति, किन्तु एकाधिकरण्यं नास्ति. सो छात्राणाम् इति बहुवचनम् अस्ति. अत्र किमुक्तम्? एकत्वसङ्ख्याविशिष्टश्चेद् अवयवी. अवयवी एकवचने भवेद्. अवयवी विच् यु आर् रेफरिङ्ग् टु शुड् बि सिङ्गल्, तदैव समासः भवति. अत्र तु even though the chhatra samudaya, the group of students is one, satyam, kintu there are many students in that. There are two kinds of samudayas which we always refer to. We call them as udbhutavaya samudaya and then anudbhutavaya samudaya. There is, I mean, this question always arises where you have sarvaha and sarve. Okay, what is the difference? Why do you have two things? Whenever it means all, sarvaha ityasya kortaha, sarve iti bahuvachanasya kortaha iti prashna. तत्रैव अयं विषयः भवति, उद्भूतावयवः समुदायः, अनुद्भूतावयवः समुदायः इति. समुदायस्तु सर्वदा एक एव, अ ग्रूप् इस् आल्वेज् वन्. किन्तु यदा तत्र समुदाये अवयवानां पृथक्त्वेन विवक्षा भवति, वेन् यू इन्टेन् द समुदाय एस् अ ग्रूप् वेर् ईच् इण्डिविजुवल् रिटेन्स् इट्स् ऐडेण्टिटि, उद्भूत अवयव वेर् द पार्ट्स् आफ् द समुदाय आर् एक्स्प्लिसिट्, तदा किं भवति? बहुवचनं भवति समुदायस्य, यथा सर्वे जनाः इति भवति. वेन् यू डु नाट् इण्टेण्ड् टु एक्स्प्रेस् द पार्ट् एस् इण्डिविजुवल्स्, यू जस्ट् इण्टेण्ड् टु एक्स्प्रेस् इट् एस् वन् होल् थिङ्ग्, अनुद्भूत अवयव यद् अवयवास् आर् नाट् इण्टेण्डेड् टु बि एक्स्प्लिसिट्, तदा तु समुदायस्य एकत्वेन एकवचनं भवति सर्वः इति. अत्रापि तथैव, यत्र यद्यपि समुदायः एकः, तथापि उद्भूत अवयव समुदायः अत्र विवक्ष्यते. द ग्रूप् आफ् स्टूडेण्ट्स् इस् इण्टेण्डेड् वित् ईच् इण्डिविजुवल् बीङ्ग् एक्सप्लिसिट तदानीं छात्राणाम् इति बहुवचनम् अस्ति. एकत्वसंख्यावैशिष्ट्यम् नास्ति इत्यतः समासः न भवति. पूर्वश्छात्राणाम् छात्रसमुदायस्य पूर्वभागः इत्यर्थः. अत्र अवयविनः छात्रसमुदायस्य एकत्वेऽपि उद्भूतावयवकतया बहुत्वात् एकत्वसंख्यावैशिष्ट्याभावात् न समासः. सिन्स् इट् डस् नाट् एक्सिस्ट् इन् एकवचन. एकत्वसंख्यावैशिष्ट्यम् नास्ति अत्र इत्यतः समासः न भवति. अत्र सूत्रे किमुक्तम्? पूर्व अपर अधर उत्तरम् इति चत्वार्येव पदानि उक्तानि. किन्तु सर्वोऽपि एकदेशः अह्ना समस्यते इति कश्चन नियमः अस्ति. अह्ना नाम अहन् शब्देन सह न केवलम् एते चत्वारशब्दाः किन्तु सर्वे एकदेशवाचकाः. एकदेशः नाम भागः, अवयवः इत्यर्थः. तद्वाचकाः सर्वेऽपि शब्दाः अहन् शब्देन सह समस्यन्ते. सो वित् अहन् शब्द not only these four but any word which indicates a part ekadesha will combine. katham nyayate iti prashnah. sankhya visaya purvasya anhasya ahan anyatarasyam nau iti sutram asti. anhasya ahan, the word anha is replaced by ahan as what the sutra is saying. sankhya visaya purvasya, when the ahan is preceded by sankhya, a number, vi, the upasarga vi, or the word saya. Okay, so now saya is an ekadeshavachaka, which means the latter part ityarthe, the ending part ityarthe, saya ityarthe. When the word ahan is preceded by the word saya, there is an adesha which is given by the sutra. Now how does the samasa happen to give saya shabda as the purva pada with ahan? There is no sutra which gives the samasa. सायशब्दस्य यदा सायशब्दस्य सायशब्दः पूर्वपदम् तदा अहन् शब्दस्य कश्चन आदेशः अत्र विधीयते. किन्तु सायशब्दः यदि पूर्वपदम् भवेत् तदा समासः भवेत्. देर् शुड् बि ए समास आफ् साय वित् अहन्. समासस्तथम् इति प्रश्नः. समासविधायकम् किमपि सूत्रम् नास्ति. तथापि पाणिनिना आदेशः उक्तः. तेन ज्ञायते अहन् शब्देन सह सर्वे एकदेशवाचिनः समस्यन्ते. Therefore, we derive a rule saying all ekadeshavachakas can combine with ahan shabda. Ateva, madhyam anhaha, madhyanhaha, sayanhaha. So, we have all these words. Purvanha, we can easily derive from this because purva is there. Purva manhaha, purvanhaha. But, madhyanha and sayanha cannot be derived if you consider only purva, apara, adhara, uttara. Therefore, sarvopi ekadeshaha anha samasyate iti niyamaha. तेन मध्यम् अह्नः, मध्याह्नः, सायमह्नः, सायाह्नः इत्यादीनि रूपाणि सिद्ध्यन्ति. कथम् प्रक्रिया इति द्रष्टव्यम्, बिकास् द वर्ड् इस् अहन्, अह्नः इति कथम् जातम् इति द्रष्टव्यम्. नेक्स्ट् स्लैड् 4. मध्यम् अह्नः इति लौकिकविग्रहः. तत्र शास्त्रीयविग्रहे मध्य सु मध्य इति प्रथमा विभक्तौ अस्ति. अह्नः इति षष्ठी विभक्तिः. Okay, anhaha is the shashti of ahan. So ahan shabdat nas pratyah shashti bhakto. Sankhya visaya iti gyapakat samasaha. There is no direct samasa vidhayaka sutra. Because of the gyapaka itself, we do the samasa. Samase krute raja has sakhibhyash tat iti sutra masti. Rajan ahan sakhi. Tatpurusha samase yada ete shabdah santi tada tebhyah tach iti samasanta pratyah bhavati. So at the end we add touch, which is nothing but akara. Madhya, su, ahan, nas, a, ityasti. Krittarthita samasashtra ityanena pratipatika samnyayam, supodhatu pratipatika yohu ityanena supratyaya yohu lopaha. So you are left with madhya, ahan, a. Idanim anhonna etebhyaha iti sutram asti. These sutras we will study later. At the end of the tatpurusha samasa prakarana or at the there is something called the samasashraya vidhi which we will study in the next year. So somewhere you will study this sutra where if there is a sarvanama or an ekadesha vachaka preceding ahan, the ahan is replaced by anha. Ahan shabdasyaiva anha iti adeshah bhavati. Anhonna etebhyaha iti sutrena. Tena ahan ityasya sthane anha iti adeshah. Madhya anha a ityasti. Idanim यस्येति च इति सूत्रेण अन्ह इत्यत्र नकारस्य क्षम्यताम् अकारस्य लोपः. सो यः मध्य अन्ह अ अकस्सवर्णे दीर्घः इत्यनेन दीर्घे कृते मध्याह्नः इति भवति. अहं शब्दः नपुंसकलिङ्गः, किन्तु रात्रान्हाः पुंसि इति सूत्रमस्ति. समासे तत्पुरुषसमासे यदा रात्रिशब्दः अह्नः शब्दः अहं शब्दो वा अस्ति तदा पुल्लिङ्गे भवति इति अस्ति. अतः पुल्लिङ्गत्वे सति मध्याह्नः सु इति कृते मध्याह्नः इति रूपम्. सो दिस् इस् वन् प्रक्रिया वेर् यु विल् सी डिफरेण्ट् कैण्ड्स् आफ् आल् डिफरेण्ट् कैण्ड्स् आफ् कार्यस् विच् हेपन् ड्यूरिङ्ग् अ समास. देर् इस् अ समासान्तप्रत्यय, देर् इस् अ विशेष इन् उत्तरपद, उत्तरपदे विशेषः आदेशः क्रियते, and then there is a sandhi between the purvapada and uttarapada, there is a niyama for linga. So this is one case where you need to require all different kinds of sutra. So madhyanah evam eva sayanah iti rupam api siddhyati. Idani matra kaha niyamah uktah sarvopi ekadeshah anha samasyate. Using this paniniya nirdesha where he says saya shabda combining with ahan, using that as a gyapaka. Gyapaka means where we use it as an indicator, where directly something you do not have the means for something. Atha samasayadhayakam sutram nasti, hintu paninina uktam saya shabdaha ahan shabdena saha purvapadam bhavati iti. Ataha tena jnayate sarvopi ekadeshaha anha samasyate iti. I'll come back to the prakriya in just a short moment. Kechittu sarvaha ekadeshaha kalena samasyate natu anha eva. So what was the rule we derived from that sankhya visaya is that all ekadesha vachakas will combine with ahan shabda. Some people extend the range of this niyama. Okay, they say sarvaha ekadeshaha kalena samasyate. All ekadesha vachakas combine with टैम्, दट् इस् वर्ड्स् विच् इण्डिकेट् टैम्. कालवासकैः सह सर्वेषाम् एकदेशानां समासः भवति, न तु अह्न एव, नाट् ओन्लि वित् अहन् शब्द. यूसिङ्ग् द सेम् रूल् ज्ञापक, दट् इस् द सेम् रूल् विच् इस् द सङ्ख्याविसाय पूर्वस्य सामान्यापेक्षत्वात् जेनरलि दे जेनरलैस् द रूल्. ओके, नौ दिस् रूल् इस् स्पेसिफिक् टु अहन् शब्द. वि आर् सेयिङ्ग् द एकदेशवाचकस् विल् कम्बैन् वित् अहन् शब्द, बट् यूसिङ्ग् ऐ मीन् जेनरलैसिङ्ग् दिस् रूल् फर्दर् we derive a rule saying all ekadeshas combine with kalavachakas, words which indicate time. Tena kim bhavati madhyaratraha uparataha paschimaratragocharaha ityadi siddham ityahu. Madhyam ratrehe iti vigrahe madhyaratraha uparataha paschimaratragocharaha ityatra paschimam ratrehe ityarthe paschimaratra samasaha iti vadanti. By this rule saying sarvopi ekadeshah kalena samasyate iti niyamena एतादृशाः समासाः सिद्ध्यन्ति इति केचन वदन्ति. दिस् सम् पीपल् से दिस् अकार्डिङ्ग् टु अदर्स् दीस् आर् डिरैव् फ्रम् कर्मधारयसमासः. मध्यारात्रिः इत्यर्थे कर्मधारयः इति केचन वदन्ति. सो देर् आर् टु पक्षस् रिगार्डिङ्ग् दिस्. सम् पीपल् रिगार्ड् दिस् अस् तत्पुरुषसमास, दट् इस् एकदेशिसमास, पूर्वपराध इतिवत् षष्ठ्यन्तेन प्रथमायाः समासः इति केचन वदन्ति, केचन तु कर्मधारयसमासः इति वदन्ति. सो गोयिङ्ग् बेक् टु द प्रक्रिया 5491, सारि विच् वन्, टच् इस् अ समासान्तप्रत्यय विच् इस् एडेड् टु द एण्ड् आफ् अ समास. वि हव् सीन् दिस् इन् अभिभाव आल्सो. सो वि आर् एडिङ्ग् अकार एस् अ समासान्तप्रत्यय to the samasa. As soon as the samasa is done, madhyasu ahanas ityatra sankhya visayatena samasas krutaha, samasasya ante, at the end of the samasa we add tach, because there is ahan shabda. Wherever ahan shabda is found at the end of a tatpurusha, tach is added as a samasa anta pratyaya. Tach is a suffix. Tach ityatra takarasya chutu ityanena itsamya bhavati, chakarasya halantyam ityanena itsamya bhavati. So we are left with akara. So there is an a. Okay, any other questions? about Ekadeshi Samasa. Uparataha ityasya kaha arthaha. I'm not sure whether it means, I think it is, I'm not sure, I'll look it up and tell you. Drishpa Padan. Anything else? Paschima ityatra atra, paschima ratra ityatra ratrehe aparaha bhagaha, the fag end of the night ityatra, the latter part of the night. Agrivam sutram asti ardham napumsakam, slide 6. పదద్వయమస్తి అర్థం నపుంసకం పూర్వాపరాధరోత్తరం ఇత్యతః ఏకదేశిన ఏకాధికరణే ఇది అనువృత్తి అస్తి సమాంశమాసి అర్థశబ్ద నిత్యం క్లీబే సహ ప్రాగ్వత్ అస్తి సూత్రే నపుంసకం అర్థం సాత్ నపుంసకలింగే యః అర్థశబ్ద సహ ఏకదేశిన ఏకాధికరణే సమస్యతే ఏకదేశిన అవయవిన స్వార్థ ఇస్ అన్ ఏకదేశవాచక ఇట్ మీన్స్ హాఫ్ half of something, that avayavi, so tena saha samasaha bhavati, eta adhikarane, iti chute. Samamshavachi ardhashabdaha, nityam kive, saha pragvata. No, ardhashabdaha, dvivithaha. Pullinge ape ardhashabdaha asti, napumsakalinge ape ardhashabdaha asti. Ardhaha, ityasti, ardham, ityasti. Kintu tesham arthe bhedaha asti. Yada pullinge ardhashabdaha asti, tada amshavachi. It just means a part. It does not mean an exact half. Yadatu napumsakalinge ardha shabdaha, tada samamshaha, exact half ityarthe napumsakalinge bhavati. Atayeva, samamshavachi ardha shabdaha nityam klibe. Yada ardha shabdaha samam amsham vyotayati, tada nityam napumsakalinge bhavati. Saha pragvati, nama ekadeshina samasyate satat purushaha ityarthaha. Ardham pippalyaha, ardha pippali. Pippali is tamarind. Tasyaha ardham. Pippalyaha ardham it is chitta. Shashti samasaha praptaha. All these ekadesha samasas are an exception to shashti samasa. Shashti samase prapte apavadatvena ayam samasaha uchyate. Ardham pippalyaha, ardha pippali. Eka vibhaktau ashashtanta vachanam. అత్ర పిప్పలీ శబ్దస్య ఉపసర్జన సమయ అస్తి వా ఇది ప్రశ్న. ఏక విభక్తి చాపూర్వ నిపాతే ఇది సూత్రం అస్తి. విగ్రహే యత్నేత విభక్తికం తదుపసర్జన సమయం స్యాత్ ఇది విషయోర్మధ్యే అపదిశం ఇత్యర్థే అధీతం. కిమస్తి దిశయోః మధ్యే, దిశయోః మధ్యం, దిశయోః మధ్యేన, దిశయోః మధ్యాత్ ఇత్యాది వివిధ విగ్రహవాక్యేషు దిశా శబ్దస్య నియత విభక్తికత్వం అస్తి. అర్థాత్ షష్ఠీ విభక్తావేవ అస్తి. ద విభక్తి ఆఫ్ మధ్య కీప్స్ చేంజింగ్, మధ్యః, మధ్యం, మధ్యాత్ ఇత్యాది రీత్యా. కింటు దిశా శబ్దస్య సర్వత్ర షష్ఠీ విభక్తిః, అతః తస్యాః ఏక విభక్తి చాపూర్వ నిపాతే ఇత్యనేన తస్య శబ్దస్య ఉపసర్జన సమయం భవతి. తస్య చ ప్రయోజనం భవతి. Does anybody remember? There are two ఉపసర్జన సమయాస్. One is by ప్రథమానిర్దిష్టం సమాస ఉపసర్జనం. ఎత్ర ప్రథమానిర్దిష్టం సమాస ఉపసర్జనం ఇత్యనేన ఉపసర్జన సమయం భవతి తత్ర పూర్వనిపాతః భవతి. కింతు అన్యరపి ఉపసర్జన సమయా విధాయకం సూత్రమస్తి. ఏక విభక్తి చాపూర్వ నిపాతే. అపూర్వ నిపాతే అస్య ఉపయోగః పూర్వనిపాతేన భవతి. కింటు ఏక విభక్తి యదా విగ్రహే నియత విభక్తికత్వమస్తి తదా ఉపసర్జన సమయా భవతి. తస్య ఉపయోగః గోత్రీయోరుపసర్జనస్య ఇతి. ఉపసర్జనస్య స్త్రీ ప్రత్యయాంతస్య హ్రస్వః భవతి. సో ఇఫ్ ఎ వర్డ్ గెట్స్ ఉపసర్జన సమయా బై దిస్ సూత్ర, బై ఏక విభక్తి చాపూర్వ నిపాతే,
If it is a stri linga word at the end of a samasa, it means hrasva. Atayva apa disha iti sthite hrasve krite apa disha iti jatam, apa disham iti rupam. Atrapi pippali ityasti, pippalyaha ardham, pippalyaha ardhena, pippalyaha ardhat, ityadi vigraha yada kriyante, tada pippali shabdaha, yata vibhaktikam, arthat, eka vibhakti bhavati. Eka vibhakti cha purva nipate ityanena upasarjana samaya yadi bhavati, tarhi atra hrasvaha syat. There should be a hrasva here. Right? Ardham pippalyaha ityasthite, artha pippali iti hrasvaha prapnoti. So, to prevent that, there is a vartika which says, eka vibhaktau ashashthanta vachanam. Eka vibhakti japurva nipate iti sutra, ashashthantam iti vaktavyam. To prevent, you should say that for others, for words other than shashthanta. Shashthantasya upasarjana samyana bhavati, shashthanta bhinnanam. अर्थात अत्र यत्र एकदेशी समासः अस्ति शिष्यन्तेन सह तत्र अशिष्यन्तम् इति वक्तव्यम् इति उच्यते तेन पिप्पली शब्दस्य उपसर्जन समया न भवति सो देयरफॉर द वर्ड पिप्पली विल नॉट गेट द उपसर्जन समया इज व्हाट ही सेज एक विभक्तौ अशिष्यन्त वचनम् अस्तु सो अर्धपिप्पली रिमेन्स् ईकारान्त दीर्घ ईकारान्तः स्त्रीलिङ्गशब्दः भवति अर्धपिप्पली इति एकदेशी समासविषयकोऽयम् उपसर्जनसमया निषेधः आल्सो दिस् निषेध विच् सेयिङ्ग् अषष्ठ्यन्तम् बट् फार् षष्ठ्यन्त देर् विल् नाट् बि उपसर्जनसमया षष्ठ्यन्त विल् नाट् गेट् उपसर्जनसमया This Nishedha is limited to Ekadeshi Samasa. Ekadeshi Samasa Vishayakaha. So it pertains only to Ekadeshi Samasa. Tena Pancha Khatvi Ityadi Siddhati. Panchanam Khatvanam Samaharaha. Slide 7. Panchanam Khatvanam Samaharaha. Iti Dribu Samasaha. Here you have Shashti. Both of them are in Shashti. Pancha is also in Shashti and Khatva is also in Shashti. Pancha Khatva Iti Samasa Kataha. समासे कृते एकविभक्ति च पूर्व निपाते इत्यनेन उपसर्जन संज्ञा इष्यते इन दिस केस इवन दो खट्वा इज इन षष्ठी उपसर्जन संज्ञा इज रिक्वायर्ड बिकॉज देर इज अ ह्रस्व खट्वा इत्यत्र ह्रस्वः भवति पञ्च खट्व इति अकारान्तम् ह्रस्वकारान्तम् प्रातिपदिकम् ततः नीप् प्रत्यये कृते पञ्च खट्वी इति रूपम् हियर अनलेस देर इज अ ह्रस्व वी कैनॉट डू नीप् नीप् प्रत्ययः न भवति यदि ह्रस्वः नास्ति तदा नीप् न भवति अतः अत्र निषेधः न भवति अषष्ठ्यन्तवचनम् इति यदुक्तम् तद् अस्मिन् विषये न भवति इवन् इन् द प्रीवियस् केस् दिशयोः मध्ये दिशयोः इस् इन् षष्ठी इफ् षष्ठ्यन्तस्य उपसर्जनसंज्ञा नास्ति इति यदि उच्यते तर्हि तत्रापि ह्रस्वः न स्यात् अत एव एकदेशी समासविषयकः दिस् निषेध That is, Nishedha for Shashthyanta getting Upasarjana Samya is it applies only to Ekadeshi Samasa. Ekadeshi Samase is Shashthyanta Masti, Tasya Upasarjana Samya na bhavati. Tena Adha Pippali ityatra Hraswaha na bhavati ityatra. Asto, Kleeve Kim, Adham Napumsakam iti uktam, Kimartham Kleevaha, Kleevam Nama Napumsakam, Kleeve Kim Gramardhaha. ग्रामस्य अर्धः इत्यस्ति अर्धशब्दः पुल्लिङ्गे पुल्लिङ्गे अर्धशब्दः अंशवासी ग्रामस्य कश्चन भागः इत्येव अर्थः नाट् एक्साक्ट्लि हाफ् आफ् द विलेज् सम् पार्ट् आफ् द विलेज् इत्यर्थः अत्र अर्धशब्दः नपुंसकलिङ्गे नास्ति अतः अनेन सूत्रेण समासः न भवति एतत् समासाभावे षष्ठी समासः षष्ठी इत्यनेन ग्रामस्य अर्थः समासः षष्ठन्तस्य पूर्वनिपातः And since Shashti iti sutre, Shashti iti prathamantam, ataha Shashthyantasya upasarjanam purvam ityanera purvanipataha gramardhaha iti rupam. Yadi ardhagramaha iti uchyate, by saying ardham gramasya ardhagramaha, then we intend an exact half of the village. क्षेत्र तो केवल अंशवाचक तदा पुल्लिंग अस्ति द्रव्यैक्ये एव एकदेशिन एकाधिकरणे इति उक्तं यत्र एकत्व संख्या विशिष्टः भवेत् अवयवी इति अत्रापि तथैव अतएव अर्थं पिप्पलीनां हाफ ऑफ मेनी टर्मिनल्स इत्यर्थे समासः न भवति समासः टेक्स प्लेस ओनली व्हेन द वर्ड पिप्पली और द अवयवी इज इन एकवचन एंड नॉट इन बहुवचन अग्रिमं सूत्रमस्ति द्वितीये तृतीये चतुर्थ तुल्याण्यन्यतरस्याम् एट् स्लैड् पदद्वयमस्ति द्वितीय तृतीय चतुर्थ तुल्याणि अन्यतरस्य कश्चन प्रश्नः हौ डु वि डिटर्मिन् द पूर्वनिपात वेर् कुत्र अर्थः अर्थम् इत्यत्र न केन सूत्रेण समासः इति द्रष्टव्यम् पूर्वनिपातस्तु समासम् अधिकृत्येव भवति केन सूत्रेण समासः यदि अर्धम् इति नपुंसकलिङ्गे अस्ति तदा अर्धम् नपुंसकम् इति सूत्रेण समासः तस्मिन् सूत्रे अर्थशब्दः प्रथमाविभक्तौ पठितः अतः तस्य उपसर्जनसंज्ञा भवति उपसर्जनम् पूर्वम् इत्यनेन पूर्वनिपातः यदा तु अर्थः इति पुल्लिङ्गे अस्ति तदा षष्ठी इत्यनेन समासः तत्र षष्ठ्यन्तस्यैव प्रथमानिर्दिष्टत्वात् पूर्वनिपातः द्वितीय तृतीय चतुर्थ तुल्याणि अन्यतरस्या पूर्वापराधवत्तरम् इत्यनेन एकदेशिना एकाधिकरणे इति अनुवर्तते एतानि एकदेशिना सह प्राग्वद् वा एतानि नाम द्वितीय तृतीय चतुर्थ तुल्य इति चत्वारि पदानि अन्यतरस्याम् अर्थात् विकल्पेन समस्यन्ते अन्यतरस्याम् इस् एन् आप्शन् सो ऑप्शनलि दीस् वर्ड्स् कम्बैन्ड् वित् एकदेशि वित् एन् अवयवी द्वितीयं भिक्षायाः सेकेण्ड् पार्ट् आफ् द भिक्षा इत्यर्थे द्वितीयं द्वितीयपदं द्वितीय इति पदं भिक्षापदेन सह समस्यते द्वितीयभिक्षा भिक्षायाः द्वितीयम् अर्धम् इत्यर्थः द सेकेण्ड् हाफ् आफ् द भिक्षा इत्यर्थे द्वितीयभिक्षा इति प्रयोगः Please understand the meaning. It is not the second bhiksha. That is not a bhiksha which was taken for the second time. Dvitiyam iti ekadeshi. It is a part. It refers to a part of the bhiksha itself. It is not the second era, kintu a second part of the bhiksha itartha. Dvitiyaha bhagaha itarthe dvitiyam itarthe prayogaha. Dvitiyam bhikshayaha dvitiya bhiksha itarthe. Ekadeshina kim? Avayavi vachakena sahaiva samasyate. द्वितीयं भिक्षायाः भिक्षुकस्य इति प्रयोगः अस्ति भिक्षायाः द्वितीयं भागं भिक्षुकस्य भवति प्रथमः भागः अन्येन केनचित् स्वीकृतः द्वितीयः भागः एव भिक्षुकस्य भवति इति अत्र द्वितीयशब्दस्य भिक्षुकशब्देन सह समासः न भवति द वर्ड् द्वितीय विल् नाट् कम्बैन् वित् भिक्षुक किमर्थं द्वितीय इस् अ पार्ट् आफ् द भिक्षा एण्ड् नाट् आफ् द भिक्षुक भिक्षुकः एकदेशी न भिक्षा एव एकदेशी अतः भिक्षा शब्देन सह समासः भवति भिक्षुकस्य इत्यनेन सह समासः न भवति अत्र द्वितीयम् इत्यस्य भिक्षुकपदेन समासः न अन्यतरस्यां ग्रहणसामर्थ्यात् पूर्णगुण इति निषेधं बाधित्वा पक्षे षष्ठी समासः इदानीं द्वितीय तृतीय चतुर्थ तुल्याणि अन्यतरस्याम् इति उच्यते optionally combined. Kimartham anyatarasyam grahanam. It is not to say that the samasa is optional. All samasas are optional. Mahavibhasha asti. Vibhasha asti adhikaraha. Prathamadhyayasya. Prathama pade arabhyate. So, when it covers the entire samasa adhikara, samasa prakarana, all samasas are optional. That is, you can either say the vakya as dvitiyam bhikshayaha or you can say dvitiya bhiksha. So that is there. Kimartham punaha anyatarasyam grahanam. So why does Panini say optionally? You should notice this. Whenever in the samasa prakarana, wherever Panini says a samasa is optional, it does not mean that there is one samasa and there is a vigraha. This is already attained by Mahavibhashadhikara. It means there are two samasas happening. In the absence of this samasa, there is some other samasa which can happen. When Panini gives an option for a particular samasa, it means that this samasa happens and there is an option, optionally there is another samasa happening, and by Mahavibhasha there is a vakya also. So it always ends up in three forms. Atratu ayam samasaha ekadesha samasaha krutaha. Etat samasa bhave kaha samasa bhavet iti cheta shashti samasaha bhavet. Vikshayaha dvitiyam ityasti. So shashti samasam badhitva ayam samasaha uktaha. So we do this samasa, it becomes dvitiya bhiksha. So since this samasa is optional, when this samasa does not happen, shashti samasaha bhavati. Vikshayaha dvitiyam, viksha dvitiyam iti. Shashti samasaha eva bhavet. Kintu shashti samasa kashchan nishedha asti. There is a nishedha for shashti samasa which we studied. Purana guna suhitartha sadavyetavya samanadhikaranena. Iti shashti samasasya nishedha uktaha. Puranarthakaha. Wherever there is a purana pratyayanta. An example given there was satam shashtaha. Shashtha is a purana pratyayanta. From prathama, dvitiya, tritiya, chaturtha, panchama, shashtha, all of them are purana pratyayanta. So now, dvitiya, tritiya, chaturtha, turiya, all these are also purana pratyayantas. Purana guna suhitartha ityanena shashti samasasya nishedha asti kila iti prashna. In the absence of this sutra, in the absence of this samasa, we cannot do shashti samasa because there is a nishedha saying purana guna. So he says, anyatarasyam grahana samarthyat. Due to the power of that anyatarasyam, because Panini is saying it is an optional samasa, kasya samarthyadeva purana guna iti nishedham vadhitva, overruling the nishedha for purana guna, pakshe shashti samasaha. In this case, only in this case, there is also shashti samasa. Even though they are purana pratyayantas, there is shashti samasa with these words. Dvitiya, tritiya, chaturtha and turiya. Therefore, bhikshayaha dvitiyam, bhiksha dvitiyam, ityapi rupam bhavati. So there are three forms. Dvitiya bhiksha iti ekadeshi samasa pakshe rupam. Bhiksha dvitiyam iti shashti samasa pakshe rupam. Dvitiyam bhikshayaha iti vakye api prayogaha sadhuhu. There are three cases possible. Coming back to the doubts in Ardham Napumsakam. Ardhaha kutra iti. I didn't understand the question. Ramaha iti ekadeshi shabdaha. Yes, anything can be an ekadeshi actually, a part. When you are referring to a part of something, that whatever whose part you are referring to can be an ekadesha. Ekadeshi, you are referring to the half or a part of the village, so grama iti ekadeshi. Ardhaha gramasya ityatra gramaha ekadeshi. Any other questions? Anantha Prashna Mahodaya, Kashtan Prashna Asit, Maya Prashna, Prashna Se Ashayaha Navagataha. Ardha iti na pullinga shabdasya arthaha amshaha. It means a part. Ardham gramasya ityapi sadhu. Satyam. Ardham gramasya iti avashyam bhavati, kintu tada ardhagramaha iti samasaha. Iti samasaha kriyate, tada ardham napumsakam ityanena samasaya kriyate, ardhagramaha iti rupam bhavati. Edatu ardhaha gramasya iti vigraha, tada gramardhaha iti samasaha. Sutre ardhaha iti nasti, ataha pullingasya ardhashabdasya anena samasaha na bhavati, kevalam napumsakalinge yaha ardhashabdaha tasya ardham napumsakam ityanena samasaha. Yadi pullinge ardhashabdaha tada shashti iti sutrena samasaha. Any other questions? next slide 10 praptapanneca dvitiyaya tini padane santi prapta apanne dvitiyaya iti dvitiya tatya chatusriya nena tarasyam ityatah anyatarasyam iti anvartate vikalpena prapta apanna iteta shabda dvayam dvitiyaya nama dvitiya dvitiya vibhaktyantena saha vikalpena samasyante satatpurushah पक्षे द्वितीया श्वेतादि इति इति समासः रिमेम्बर द्वितीया श्वेतातीत गतित पता श्वेतातीत पतित गतात्यस्त प्राप्तापन्नैः इति सूत्रेपि प्राप्त शब्दस्य आपन्न शब्दस्य च ग्रहणम् अस्ति सो देयर हि सेड द्वितीयांतम् प्राप्त शब्देन आपन्न शब्देन च सह समस्यते अत्र तु प्राप्त शब्दः आपन्न शब्दस्य द्वितीयांतेन सह समस्यते व्हाट इज द डिफरेंस Difference is only in Purvanipata. Yada dvitiya shritatita patita ityanena samasas kriyate, tada dvitiyantasya purvanipata bhavati. Yada tu anena praptapanneca dvitiyaya ityanena samasas kriyate, tada prapta shabdasya apanna shabdasya cha purvanipata bhavati. Eva praptaha jivikam, ityasti jivikam praptaha, ityasthe prapta jivikaha, jivika praptaha, iti ubhayamapi bhavati. Also there is a vakya. So there are three things. There, you can use it in a vakya as jivikam praptaha. Praptapanneca dvitiyaya ityanena yadi samasaha, tada prapta jivikaha iti samasaha. Yada dvitiya shritatita ityanena samasaha, tada jivika praptaha iti rupam. Evam prapta gramaha, grama praptaha iti vibhavati. Evam apanna jivikaha, jivika apannaha, jivikam apannaha ityarthe. आपन्न जीविकः एवं जीविका पन्नः इह सूत्रे द्वितीयया अ इति छित्वा अकारः अपि विधीयते प्राप्तापन्नेस्य द्वितीयया इत्यस्ति एट द एंड वी अस्यूम दैट देयर इज वन मोर अकार द्वितीयया अ इत्यस्ति सवर्ण दीर्घे कृते द्वितीयया इत्येव रूपं भवति किमर्थम् इति चेत् तेन जीविकां प्राप्ता स्त्री इत्यस्ति स्त्रीलिंगे यदा तु जीविकां प्राप्तः इति पुल्लिंगे विग्रहः तदा समस्या नास्ति प्राप्त जीविकः इति भवति यदा स्त्रीलिंगे समासः जीविकां प्राप्ता इति उच्यते तदा समासे कृते प्राप्ता जीविका इति रूपं प्राप्नोति इट शुड एक्चुअली बी प्राप्ता जीविका बट द एक्चुअल फॉर्म डिजायर्ड इज प्राप्त जीविका देयरफॉर द्वितीयया अ इति छेदः क्रियते अकारः विधीयते विच मीन्स प्राप्त शब्दः आपन्न शब्दस्य द्वितीयान्तेन सह समस्यते एतयोः शब्दयोः अकारः अन्तादेशः भवति ह्रस्व अकार इज गिवन एज द आदेश सो प्राप्ता बिकम्स प्राप्त प्राप्त जीविका आपन्न जीविका इति रूपम् यदा तु द्वितीयाश्रितातीत इत्यनेन समासः तदा जीविका प्राप्ता जीविकापन्ना इत्येव रूपम् यदा तु अनेन समासः तदा द्वितीयया अ इति छेदः अस्ति इत्यतः ह्रस्वाकारः आदिश्यते दीर्घस्य स्थाने ह्रस्वः आदिश्यते तेन प्राप्त जीविका आपन्न जीविका ऑलवेज इट विल बी ए ह्रस्व इन दिस केस क्वेश्चन द्वितीय तृतीय इज इट कंटेन्ड ओनली टू दोस मेंशन्ड इन द सूत्र यस ओनली टू दोस इट इज ओनली फॉर दोस फोर वर्ड्स पंचमी षष्ठी इत्यादि अस्ति चेत् समासः न भवति पूर्ण गुण इत्यनेन निषेधः षष्ठी समासोऽपि न भवति अयं समासोऽपि न भवति ऑल समासास अनलेस मेंशनड अदरवाइज अनलेस स्पेसिफिकली मेंशनड दे आर कन्फाइंड टू ओनली द पर्टिकुलर वर्ड्स व्हिच आर मेंशनड इन द समास नॉट नो सिनोनिम्स एक्सेप्टेड नो सिमिलर वर्ड्स एक्सेप्टेड अग्रिमं सूत्रमस्ति कालाः परिमाणिनः स्लाइड 11 पदद्वयमस्ति कालाः परिमाणिनः परिमाणि परिमाणम् अस्य अस्ति इति परिमाणि नाम परिच्छेद्यवाचिना सह परिच्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते परिच्छेद्य इज दट विच इज बीइंग मेजर्ड परिमाण इज अ मेजर परिमाणि इज दट विच इज बीइंग मेजर्ड अत एव परिच्छेद्यवाचिना सह इति उच्यते परिच्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते Masaha jatasya. Masa jataha. Jatasya masaha. So, for a child which is born, masaha. This is 1 month. Month, masaha iti kala masakaha. Tena kala masakena jata ityasya parichedaha kriyate. The child is being measured by time. Right? Adaha masaha parichedakaha. Jataha parichedyaha. Parichedaka is that which measures. Parichedya is that which is being measured. Similarly, parimana is that which measures. Parimani is that which is being measured. So, masaha jatasya, kalamataka shabdaha, parimanina saha samasyante, masa jataha. Otherwise, it would have been shashti samasa to give jata masaha. So, here it is masaha jatasya, masa jataha. Dyaha jatasya, jaha jataha. So, something it is 2 days old. Jatasya dyaha. 2 days. इत्यर्थे द्यः जातः इति रूपम् अत्र द्वयोः अन्होः समाहारः द्यः सो द्यः इति रूपं कथम् इति चेत् द्वयोः अन्होः समाहारः इति तथितार्थोत्तरपदसमाहारे च इत्यनेन समाहारे द्विगुः क्रियते विल् स्टडि समाहार द्विगु लेटर् समाहारे द्विगुसमासे कृते द्यः जातस्य इति विग्रहे द्यः जातः इति रूपम् देर् इस् आल्सो वन् मोर् फार्म् द्व्यन्ह जातः So, to derive that, there is a vartika. Uttarapadena parimanina dvigohu siddhaye bahunam tatpurushasya upasankhyanam. Uttarapadena parimanina dvigohu siddhaye bahunam tatpurushasya upasankhyanam. Dve ahani jatasya iti samasakriyate. The previous case, what we did dhyaha jatasya, vayoranho samaharaha ityanena samahare dvigahu krataha, samahare dvigahu krute tataha dhyaha jatasya ityanena samase dhyaha jataha iti jatam. But, idani bahunam tatpurushaha. What we are doing, dve ahani jatasya, we are not doing a samahara dvigahu. Okay. So, dve ahani jatasya iti त्रयाणाम् तत्पुरुष समासः क्रियते बै दिस् वार्तिका उत्तरपदेन परिमाणिना द्विगोस्सिद्धे बहूनाम् तत्पुरुषस्य उपसङ्ख्यानम् इति वार्तिकमस्ति तेन बहूनाम् तत्पुरुष समासः क्रियते तत्पुरुष समास as I said, समास इन् जनरल् इस् आल्वेस् ओन्ली फार् टु द्वयोर्द्वयोरेव समासः इति साधारणनियमः एक्सेप्ट् इन् द्वन्द्व आर् इन् बहुव्रीहि वीसे द्वयोरेव समासः किन्तु बहूनां तत्पुरुषः अपि कदाचित् भवति इन् दिस् केस् तत्पुरुष समासः फोर् 3 वर्ड्स् इस् एक्सेप्टेड् वै इति वदामि त्रयाणां तत्पुरुष समासः क्रियते तत्पुरुष समासे कृते सुप्रत्ययस्य लोपे कृते जातशब्दे उत्तरपदे परे द्वि अहन् इत्येतयोः उत्तरपदे परे द्विगुः द्विगु समासः इस् आफ् 3 कैण्ड्स् तद्धितार्थ उत्तरपद अण्ड् समाहार सो तद्धितार्थः we'll study these types later. Into uttarapade pare dvigu samasaha ityasti. Dvigu samasa takes place when there is one more word as the uttarapada. This kind of dvigu happens only when there are many words which are in samasa. Uttarapade pare purvayohu samasaha. So when followed by an uttarapada, the previous words combine in a dvigu samasa. That is one kind, which is uttarapade pare dvigu. So, dve ahani jatasya iti trayanam. There are 3 words which initially combine in a tatpurusha. Tataha jatashabde uttarapade pare dve ahani dvi ahan ityetayohu dvigu samasaha kriyate. So, in that case, the form will end up being dvyanha jataha. Yadi vayohu anhohu samaharaha dvyaha vyaha jatasya iti kriyate tada rupam kim bhavati dvyaha jataha iti rupam bhavati. किन्तु द्व्यन्ह जातः इत्यपि रूपम् अस्ति तदर्थं त्रयाणां तत्पुरुष समासः अङ्गीकरणीयः उत्तरपदेन परिमाणिना द्विगोः सिद्धये तु अटेन् दिस् उत्तरपदद्विगु बहूनां तत्पुरुषस्य उपसङ्ख्यानम् वि शुड् आल्सो एक्सेप्ट् बहूनां तत्पुरुषः इति इदं वार्तिकम् इफ् यु सी द प्रक्रिया इन् डीटैल् यु विल् अण्डर्स्टाण्ड् वाट् इस् हेपनिङ्ग् इन् द फस्ट् केस् इस् द्वयोः अह्नोः समाहारः इत्यस्ति स्लैड् 13 द्वयोः अह्नोः समाहारः इति अर्थे द्वि नस् सोरि शुड् बि द्वि ओस् अण्ड् अहन् ओस् द्विवचन सो दी ओस अहन ओस इति स्थिते तथितार्थोत्तर पद समाहारे च इति सूत्रेण समाहारे द्विगु समासः क्रियते. वी आर फर्स्ट डूइंग समाहार द्विगु. दी ओस अहन ओस इति स्थिते समाहार द्विगुः क्रियते. राजाः सखिभ्यश्च तच्चित्तेन समासान्तः टच्. सो द अकार इज एडेड टू द एंड ऑफ द समास. द्वि ओस अहन ओस अ सुबोधातु प्रातिपदिकयोः इत्यनेन सुब्लुक् कृतः तदा तु द्वि अहन अ इति भवति. न संख्यादे समाहारे इत्यनेन अह्नादेशः न भवति. द प्रीवियस केस मध्याह्न वी सॉ दैट द अहन वाज रिप्लेस्ड बाय अह्न, बट इन दिस केस देयर इज नो अह्नादेश. देयर इज अ निषेध विच सेज न संख्यादेह समाहारे व्हेन प्रीसीडेड बाय अ संख्यावाचक शब्द then it is a samahara, there is no anhadesha. So ahan will remain as ahan. Tadatu nastadhite ityanena tilopaha kriyate. So in that case, when followed by this tach pratyaya, nastadhite iti sutram asti, tena ti pratyasya lopaha bhavati. Ti ityasya, achontyadi ti, the final ach, which is akara an ityasya, lopaha kriyate. Tada dvi ah a iti bhavati. ज्ञानादेशे कृते द्व्यः इति रूपम्. व्यहः जातस्य इति इदानीम् एकदेशी समासः. व्यहासु जातांग कालाः परिमाणिना इत्यनेन तत्पुरुषसमासः क्रियते. तदा व्यः जातः इति रूपं सिद्ध्यति. दिस् इस् द फर्स्ट् केस् वेर् वि डू समाहार द्विगु एण्ड् देन् देर् इस् तत्पुरुषसमासः. इन् द अदर् केस् द्वे अहनि जातस्य इति यत्र समासः तदा द्वि औ अहन् औ जात नस् इति त्रयाणां पदानां तत्पुरुषसमासः आदौ क्रियते. इनिशियलि वि डू तत्पुरुषसमासः. कालाः परिमाणिना इत्यनेन द्वि अहन् इत्येतयोः जातशब्देन सह समासः क्रियते. तदा किं जातं? द्वि औ अहन् औ जात नस् इत्यस्ति. सुपोधातुप्रातिपदिकयोः इत्यनेन सुब्लुक् द्वि अहन् जात इत्यस्ति. इदानीं तथितार्थोत्तरपदसमाहारे च इत्यनेन जातशब्दे परे, दट् इस् द मीनिङ्ग् आफ् उत्तरपद. वेन् देर् इस् एन् उत्तरपद फालोयिङ्ग् द फस्ट् टू वर्ड्स् द्वि एण्ड् अहन् कम्बैन् टु फार्म् द्विगु समास. दिस् इस् काल्ड् उत्तरपद द्विगु. दिस् इस् नाट् समाहार द्विगु. दिस् इस् उत्तरपदे परे द्विगु समासः. द्वि अहन् इत्येतयोः द्विगुः. इदानीं टच् समासान्तः. अस् सून् अस् वि डू समास, देर् इस् समासान्त विच् इस् एडेड् टु द एण्ड् आफ् द द्विगु समास. द्वि अहन् इत्यस्मात् टच् प्रत्ययः. द्वि अहन् अ इत्यस्ति. द स्पेशालिटि हियर् इस् अह्नोन्न एतेभ्यः इत्यनेन अह्नादेशः भवति. इन् द प्रीवियस् केस् देर् वास् अ निषेध फार् अह्नादेश. न संख्यादे समाहारे इत्यनेन अह्नादेशस्य निषेधः आसीत्. अत्र तु अह्नोन्न एतेभ्यः इत्यनेन अह्नादेशः भवति. द्वि अह्न अ इति जायते. ततः यस्येति च इत्यनेन अकारस्य लोपे द्वि अह्न अ इकोणसि इत्यनेन अनादेशे द्व्यह्न जातः इति रूपम्. सो इफ् वि ओन्ली टेक् समाहार द्विगु, केवलं द्व्यः जातः इति रूपं भवति. उत्तरपदे परे यदि द्विगुः भवति तदा द्व्यह्न जातः. उत्तरपदे परे यदि द्विगुसमासः करणीयः उत्तरपदेन परिमाणिना द्विगोः सिद्धये, फार् दट् बहूनां तत्पुरुषस्य उपसङ्ख्यानम्. यु हेव् टु एक्सेप्ट् बहूनां तत्पुरुषः, अदर्वैस् उत्तरपदमेव न भवति. यदि न अङ्गीक्रियते उत्तरपदे पदे समासः तदा तु एवं प्रक्रिया भवितुं नार्हति. देर्फोर् वि एक्सेप्ट् समासः फार् त्री वर्ड्स्, तत्पुरुषसमासः फार् त्री वर्ड्स् एण्ड् देन् प्रोसीड्. संख्या अस्ति किन्तु नस्तद्धिते अम् इत्यस्य लोपः नकारस्यैव. वेन् इट् इस् अनकारान्त तदैव नस्तद्धिते इत्यनेन अनः लोपः भवति. अहन् इति नकारान्तम् नकारान्तम् यत्र अस्ति तत्रैव तिलोपः. यदा तु अह्नादेशः क्रियते, वेन् अहन् इस् रिप्लेस्ड् बै अह्न, यु के देर् इस् नो नकारान्तत्व, देर्फोर् नस्तद्धिते विल् नाट् अप्लै हियर्. नस्तद्धिते इस् ओवर्रूल्ड् बै अहन् इस् रिप्लेस्ड् बै अह्न, दिस् इस् अनकारान्त. एनी अदर् क्वश्चन्स्? पूर्वत्र कश्चन प्रश्नः आसीत्, प्राप्ता जीविकाम् इति यदि समासः සුපධාතු ප්‍රාතිපදිකයෝ හිතේන කිම් ක්‍රියතේ සුප් ප්‍රත්‍යයස්‍ය ලෝපහ ක්‍රියතේ විග්‍රහ කතම් භවති ප්‍රාප්තා සු ජීවිකා අම් इति भवति සුප්‍රත්‍යයස්‍ය ලෝපේ ප්‍රාප්තා इत्येव ප්‍රාතිපදිකම් දීර්ඝහ ප්‍රාතිපදිකම් ආකාරාන්තහ ස්ත්‍රීලිංගහ ප්‍රාප්තා ශබ්දහ සු ප්‍රාතිපදිකම් ප්‍රාප්තා इत्येव ශිෂ්‍යතේ so it would have been ප්‍රාප්තා ජීවිකා even after සුපධාතු ප්‍රාතිපදිකයෝ so to once සුපධාතු ප්‍රාතිපදිකයෝ who is then you have ප්‍රාප්තා that the dirgha akara is replaced by hrasva because of vitiyaya a.
Any other questions?
This is ekadeshi samasa or prathama, where you in tatpurusha samasa you find prathamanta as the purvapada. Okay. So next we go back to the sequence. We are going with the sequence dvitiya, tritiya, chaturthi, panchami, shashti. In shashti we study shashti samasa, we study shashti samasa nishedha, and then we study shashti samasa apavada. All these are exceptions. Whatever we studied today, starting from purvapara till kalaha parimayana, they are exceptions to shashti samasa. So coming back, the next samasa, the last in this sequence is saptami, saptami tatpurusha. Saptami shandaihi iti sutram. Slide 15. Saptami shandaihi. Saptami nama saptamyantam. Shandalibhihi pragvadva. Vikalpena samasyate ityartha. Shandaha, shandaihi iti bahuvachanardesha. Shandali gana asti. There is one class of words called shandali gana. Tasmin gane ye shabdaha santi. Taisaha saptamyantasya samasaha bhavati. Akshesu shandaha, akshashandaha. Shaundaha nama kriya kushalaha. Somebody who is skilled in something is called shaunda. Akshayeshu shaundaha. Very skilled in gambling. Vyakthe akshashaundaha. Iti padam. Shaundadigane keke shabdaha santhi. Iti pashyamasyate shaundaha dhurtaha. Kitava vyada praveena samvita antara adhi patu pandita kushala chapala nipuna. एते शब्दाः शौण्डादिगणे सन्ति एतैः सह सप्तम्यन्तस्य समासः भवति अधिशब्दः अत्र पठ्यते सो इफ यू सी देयर इज वन वर्ड कॉल्ड अधि इन दिस ओके सो अधिशब्दः अत्र पठ्यते अषडक्ष अशित అలంకర్మ అలం పురుష అత్యుత్తర పదాత్ ఖ ఇది సూత్రేణ ఖ ప్రత్యయ విధీయతే ఈశ్వరాధీన ఇది రూపం సో వాట్ ఇస్ హ్యాపెనింగ్ హియర్ ఈశ్వరే అధి ఇది విగ్రహ అధి శబ్దేన సహ సప్తమ్యంతస్య సమాస ఈశ్వరే అధి అధిరీశ్వరే ఇత్యనేన అధేహ కర్మ ప్రవచనీయత్వం అస్తి స్టడీ దిస్ ఇన్ కారక ప్రకరణ అధేహ కర్మ ప్రవచనీయత్వే ఎస్మాదధికం యస్యతే ఈశ్వరవచనం తత్ర సప్తమి ఇది సూత్రేణ సప్తమీ విభక్తి దట్ ఇస్ వై వి హావ్ సప్తమీ విభక్తి ఇన్ అసోసియేషన్ విత్ అధి ఈశ్వరే అధి ఇతి విగ్రహః ఈశ్వర ని అధి ఇతి సప్తమీ షౌండైః ఇత్యనేన సమాసః క్రియతే సమాసే కృతే సుపోధాతు ప్రాతిపదికయోః ఇత్యనేన ఈ ప్రత్యయస్య లుక్ ఈ ప్రత్యయస్య లుకి సతి ఈశ్వర అధి ఇత్యస్తి సవర్ణవీధే కృతే ఈశ్వరాధి ఇదానీం అషడక్ష ఇత్యాదినా సూత్రేణ ఖ ప్రత్యయః సో ద ప్రీవియస్ ద సూత్ర విచ్ వి సా ఎర్లియర్ అషడక్షాశిత సో బై దట్ వి హావ్ అ ఖ ప్రత్యయ ఖ ఇస్ అ తథిత ప్రత్యయ ఖ ఇస్ నెక్స్ట్ రిప్లేస్డ్ బై ఈన ఆయనేయనీయ ఫడఖ చగాం ప్రత్యయాదీనా ఇతి సూత్రేణ ఖ ఇత్యస్య స్థానే ఈన ఇతి ఆదేశః భవతి ఈశ్వరాధి ఈన ఎస్యతి చ ఇత్యనేన ఇకారస్య లోపే ఈశ్వరాధీన ఇతి రూపం సో దిస్ ఇస్ హౌ వి హావ్ ద వర్డ్ ఈశ్వరాధీన ఇట్ ఇస్ యాక్చువల్లీ సమాస ఆఫ్ ఈశ్వరే అధి దేర్ ఇస్ ఖ ప్రత్యయ టు ఫార్మ్ ఈశ్వరాధీన దట్ ఇస్ వన్ సూత్ర ద ఫస్ట్ సూత్ర ఫార్ సప్తమి తత్పురుష अग्रिमं सूत्रमस्ति सिद्ध शुष्क पक्वबन्धैश्च सप्तमी इति अनुवर्तते एतैः सप्तम्यन्तं प्राग्वत् विद् दीस् वर्ड्स् सप्तम्यन्त कम्बैन्स् वेरी सिम्पल् देर् आर् फोर् वर्ड्स् इण्डिकेटेड् साङ्काश्ये सिद्धः साङ्काश्य सिद्धः साङ्काश्य इस् द नेम् आफ् अ प्लेस् आफ् अ सिटि समथिङ्ग् विच् इस् क्रियेटेड् देर् मेड् देर् इस् काल्ड् साङ्काश्य सिद्धः आतपे शुष्कः आतप शुष्कः ड्रैड् इन् द सन् आतपे शुष्कः स्थाल्यां पक्वः स्थाली पक्वः कुक्ड् इन् द स्थाली इन् द वेसल् चक्रे बन्धः चक्रबन्धः सो टैड् इन् द चक्र इत्युक्ते सो दीस् फोर् वर्ड्स् सप्तम्यन्त विल् आल्सो कम्बैन् वित् दीस् फोर् वर्ड्स् धाङ्क्षेण क्षेपे इति अग्रिमं सूत्रम् सप्तम्यन्तं सप्तमी इति अनुवर्तते धाङ्क्षवाचिना सह सप्तम्यन्तं समस्यते निन्दायां क्षेपे इत्यस्ति क्षेपः नाम निन्दा निन्दायां गम्यमानायां धाङ्क्ष धाङ्क्षः नाम वायसः काकः इत्यर्थः धाङ्क्ष मीन्स् अ क्रो सो धाङ्क्षवाचिना सह इट् इस् नाट् जस्ट् विद् द वर्ड् धाङ्क्ष बट् वित् सिनोनिम्स् आफ् क्रो आल्सो धाङ्क्षवाचिना सह सप्तम्यन्तं समस्यते निन्दायाम् तीर्थे ध्वांशः इव तीर्थध्वांशः तीर्थे ध्वांशः इति समासः कः अर्थः सः इव गुरुकुले यः चिरं न तिष्ठति सो इफ् द क्रो विसिट्स् अ तीर्थक्षेत्र इट् डस् नाट् रियलैज् द इम्पार्टेन्स् दट् इस् वाट् इट् मीन्स् सो इट् कीप्स् इट् फ्लैज़् अवे वेरी सून् तथैव गुरुकुले यः चिरं न तिष्ठति समलि हि कम्स् टु द गुरुकुल फार् लर्निङ्ग् बट् हि रन्स् अवे वेरी क्विक्लि इत्यर्थे तीर्थध्वांशः इति प्रयोगः एवं तीर्थकाकः तीर्थवायसः इत्यादयः प्रयोगाः सो आल्वेस् देर् इस् अ निन्दा बीङ्ग् इण्टेण्डेड् विच् इस् वै भाङ्क्षेण क्षेपे निन्दायां गम्यमानायां भाङ्क्षवाचिना सह समासः विल् स्टाप् हियर् देर् आर् सम् मोर् सूत्रस् फार् सप्तमी तत्पुरुष विल् स्टडी दट् कण्टिन्यू टुमारो एनि क्वश्चन्स् येनाक्षरसमां नायम् अधिगम्य महेश्वरात् कृत्रिम् व्याकरणम् प्रोक्तम् तस्मै पाणिनये नमः वाक्यकारम् वररुचिम् भाष्यकारम् पतञ्जलिम् पाणिनिम् सूत्रकारम् च प्रणतोऽस्मि मुनित्रयम् मुनित्रयम् नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीनम् विरच्यते।